हेलो 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 अच्छा हेलो हेलो हेलो
हेलो।
हाँ जी हाँ जी
वजह सामान्य एंड सामान्य सुमन डाउलो नंबर।
समान है समान है सुन
हाँ फिलिन
हाँ उन्होंने
सोनोस
रजिया कर लिया नंबर
इसी फिलाक्सी और नो सिलेबी इतनी फलग
हाँ
फिलाक्सी और नो सिलेबी इतनी फलग
फिलासियों फिलासियों
ये था कबाब इनो। हेलो
हेलो
एग्जाम
हेलो देना यस
रूम मस्कर
लिस्टोन
आ
हम
लुकिंग
ना
आउट आ
मर
शुक्र
रहा मौका मिलना पड़ा
इसी फिलाक्सी और नो
फिलासियों हाँ
ये था कबाब इनो
अरे कितना कर ले लो
እሺ ያው የአንድ አክሲዮን ዋጋ 750 ብር ነው።
እሺ
ዝቅተኛ መግዛት የሚችሉት ደግሞ 100 አክሲዮን ነው። ማለትም የ75000 ብር አክሲዮን ጀምሮ እንደ እርሶ አቅም እስከ 2 ሚሊዮን ብር መግዛት ይችላሉ ማለት ነው።
አመቱ አክሲዮን ነው መግዛት የሚችሉት
ዝቅተኛው 100 አክሲዮን ነው መግዛት የሚችሉት።
ተባብሮ አክሲዮን ነው ማለት ለሀገር ላይ አለ እንትን ጥያቄ
እዛ ሆኖ መግዛት የሚችሉ ከሆነ ከሺያይ ሰራተኞቻችን እዛ ሆኖ መግዛት የሚፈልጉ ከሆነ ሺያይ ሰራተኞቻችንን ላገናኙትና እነሱ ደውለው ባንክ ቤት ሄደው መግዛት ይችላሉ።
ባንክ ቤት የትኛውን ባንክ ላይ
መጀመሪያ ከእነሱ ጋር ያወሩና ስልኮትን ላስተላልፍና ይደውልሎት። ስሞትም አለበት።
እኔ ሀና
እሺ ማስታወቂያችንን ከምን ሰምተው ነው?
ሌላ ስልክ ይቆራረጠ
እሺ አሁንስ ማስታወቂያችንን ከምን ሰምተው ነው?
ማስታወቂያውን የሰማሁት ያው ከቲቪ ላይ ነው።
ኦኬ የት አካባቢ ነው ታዲያ? የት አካባቢ ነው?
ሄሎ
ክፍለ ሀገር የት አካባቢ ነው?
ወይኔ አይሰማም ስልክ
እሺ አሁንስ አሁን ክፍለ ሀገር የት አካባቢ ነው?
ክፍለ ሀገር ተስምልኝ
ሻሸመኔ። በቃ ዛሬ እንድደወሉ ታደርጋለሁ። ከእነሱ ጋር ካወሩ በኋላ ሄደው ባንክ ቤት ይገዛሉ ማለት ነው። እሺ
አመሰግናለሁ።
እናመሰግናለን።